तृतीय स्कंद
पंचदशोध्याय जय विजय को शंकादि का सार मैत्री विवाद प्राजापत्यंत तत्तेज परतेजो हनम दिति दुधार वर्षाणि शतम संकमाना सुरार्दन लोके तेन हता लोके लोकपाल हतौजस निवेदयन विश्व सृजे भांत व्यतिकरम दिशा देवा ऊचु तम ये तद विभोवे संविघ्न जद वयम भृशम न हि व्यक्तम भगवत काले नृष्ट वर्तमन देव देव जगद्धातर लोकनाथ शिखामणि परेशाम परेशाम तम भूता नमसि भावित नमो विज्ञान विरजाय मायेदमुपेशे गृहीत गुण भेदाय नमस्ते व्यक्त योनये ये त्वानन्य भावेन भावयन्त्यात्म भावनम् आत्मनि प्रोत भुवनम परम सत्सदात्मकम तेषां सुपक्व योगानां जित श्वासेन्द्रिय आत्मनाम लब्ध जिस्मृत प्रसादानाम न कुतश्चित प्रार्भव यस्य वाचा प्रजा सर्वा गावस्तन्ति वजन्तिता हरन्ति बलिमा यत्ता तस्मै मुख्याय ते नमः सत्वं विधत्सु शम्भुमन् तपसा लुप्त कर्मणाम अदभृदया दृष्ट्या आपन्नान अर्हसि क्षितम् ईश्वर देवदितेर्गर्भ ओजः काश्यपम् अर्पितम् दिशस्तिमिरयन् सर्वा वर्धतेऽग्निर्वैधसि मैत्रीर्वाच स्वप्रहर्ष्य महाबाहो भगवान् शब्दगोचरः प्रत्यक्षष्टात्मभूर्देवान् प्रीणन् रुचिरे आगिरा ब्रह्मवाचम् मानसा मे सुता जुष्मत पूर्वजा सनकादय चेरुर्विहाय सालोकान लोकेशुर्विगत स्पृहा तयेकदा भगवतो वैकुंठ श्यामलात्मनः जैर्वैकुंठ निलयम सर्वलोक नमस्कृतम वसन्ति जत्र पुरुषा सर्वे वैकुंठ मूर्तयः ये निमित्त निमित्ते न धर्मेण आराधयन हरिम यत्र चाद्य पुमानस्ते भगवान् शब्द गोचरः सत्वं विष्टभ्य विरजम् स्वानाम् नो मृडयन् विषः यत्र न हि श्रेयसम् नाम वनम् काम दुघर्द्रमहे सर्वर्तु श्रीभिर्विभ्राजत् कैवल्यमियो मूर्तिमत् वैमानिकाः सललनाश्चरितानि यत्र गायन् त्रिलोक समलक्षपणानि भर्तुः अन्तर्जलेन विक्सन् मधुमाधवीनां गन्धेन खण्डित दीपनिलं क्षिपन्ति पारावतान्यभृतसारश्चक्रवाकदर्तिः हंससुक्तितिर्बर्हिणां यः कोलाहलो विरमते अचिरमात्रमुच्चैः भृङ्गाधिपे हरिकथामिव गायमाने मन्दारकुन्दकुर्वोत्पलचम्पकारणपुन्नागनागबकुलाम्बुजपारिजार्तः गन्धेऽर्चिते तुलसीगाभरणेन तस्याजस्मिंस्तपः सुमनसो बहुमानयन्ति यत्सङ्कुलम् हरिपदानतिमात्रदृष्टैर्वैदुर्यमारकतहेममयैर्विमानैः येषाम् बृहत्कटितटास्मितसोऽभिमुख्यः कृष्णात्मनाम् रजयादधुरुत्स्मयाद्यैः श्रीरूपिणी क्वणयति चरणादबिन्दम् लीलाम्बुजेन हरिषद्मनिमुक्तदोषा संलक्ष्यते स्फटिककुड्युपेतहेम्नि सम्मार्जितीव जदनुग्रहणेऽन्यजत्नः वापीषु विद्रुन्तटा सुमलामृतात्सु प्रश्यान्विता निजवने तुलसीभिरीशाम् अभ्यर्चति स्वलकमुन्न समीक्ष वक्त्रमुच्छेषितम् भगवताम् इत्यमृताङ्गजश्रीः जन्न व्रजन्तग्विदो रचनानुवादा शृण्वन्ति यन्यविषयः कुकथामतिघ्निः जस्तु श्रुता हतभगनिर्भिरात् साराः तांस्तान् क्षिपन्त्यशरणेषु तमः सुहन्त येभ्यर्थितामपि च नो निर्गतिम् प्रपन्ना ज्ञानम् च तत्तु विषयम् सह धर्म यत्र नाराधनम् भगवतो वितरन्त्यमुष्य सम्मोहिता विततया बत्मायाते यच्च व्रजन्त निमिषाम् द्विषभानुवृत्त्या दूरे यमायुपरिणः स्पृहणीय श्रीलहान् भर्तुर्मितः सुजसः कथनानुराग वैक्लव्यवाष्पकलया पुलकीकृताङ्गः तद्विश्वगुर्वधिकृतम् भुवनैकवन्द्यम् दिव्यम् विचित्रविविधाग्रविमानशोचिः आपुः परामुदमपूर्वमुपेत्ति योगमायाबलेन मुनयस्तदथो विकुण्ठम् तस्मिन्नतीत्यमुनयः सलसज्जमानः कक्षासमानवयसावथ सप्तमायाम् देवावचक्षतगृहीतगदौपरार्ध केयूरकुण्डलकिरीटविटङ्कवेशौ मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयासितचतुष्टयबाहुमध्ये वक्त्रम् भ्रुवाकुटिलया स्फुटनिर्गमाभ्याम् रक्ते क्षणेन च मनाग्रभसम् दधानौ द्वार्ये तयोर्निविशुर्मिषतोरपृष्ट्वा पूर्वा यथा पुरटवज्रकपाटिकायाः सर्वत्र ते अविस्मया मुनयः स्वदृष्ट्या ये सञ्चरन्ति विहता विगताभिशङ्कः तान् वीक्ष्य वातरसनांश्चतुरः कुमारान् वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् वेत्रेण चास्खलयताम् मतदर्हणांस्तौ तेजो विहस्य भगवत्प्रतिकूलशीलौ ताभ्याम् निषत्स्वनिमिषेषु निषिध्यमानः स्वर्हत्तमा यपि हरेः प्रतिहारपाभ्याम् ऊचुः सुहृत्तमदिदृक्षितभङ्गैषत् कामानुजेन सहसा तौ पप्लुताक्षः मुनया ऊचु को वा निहत भगवत्परिचर्ययोचैस्तद्धर्मिणाम् निवसताम् विषमः स्वभावः तस्मिन् प्रशान्त पुरुषे गतविग्रहे वाम् को वात्मवत्कुहकयोः परिशङ्कनीयः न यन्तरम् भगवतीह समस्तकुक्षा वात्मानमात्मनि नभो नभसीव धीरः पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किम् वित्पादितम् युदर्भेदि भयम् जतोऽस्य तद्वा ममुष्य परमस्य विकुण्ठभर्तुः कर्तुम् प्रकृष्टमिह धीमहि मन्दधिभ्याम् लोकानितो व्रजतमन्तरभावदृष्ट्या पापी यशस्त्रयमे रिपोऽस्य यत्र तेषाम् इति रिपुभौ अवधार्य घोरम् तम् ब्रह्मदण्डमनिवारणमस्त्रपूगैः सद्यो हरेरनुचरौ उर्विभ्यतस्तत्पादग्रहावपततामतिकातरेण भूयादघोनि भगवद्भिरकारिदण्डो यो नौ हरेत सुरलेशेलहेलनमप्यशेषम् मावोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह तु नौ व्रजतो रथोधः एवम् तदैव भगवान् अरविन्दनाभः स्वानाम् विबुध्य सदति क्रममार्जहृदयः तस्मिन् जयो परमहंस महामुनीनामन्वेषणीय चरणौ चलयन् सहस्रिः तम् त्वागतम् प्रतिहृतौ पैकम् स्वपुम्भीस्ति अचक्षताक्ष विषयम् स्वसमाधिभाग्यम् हंस श्रियोर्व्यजनयोः शिववायुलोलक्षुभ्रातपत्रशशिकेसरशिखराम्बुम् कृतस्न प्रसाद सुमुखम् स्पृहणीय धामम् स्नेहावलोककलया हृदि संस्पृशन्तम् श्यामे पृथौ उरशिशोभितया श्रिया स्वश्चूडामणिम् सुभगयन्तमिवात्मधिष्ण्यम् पीतांशुके पृथुनितम् विनिविस्फुरन्त्या काञ्च्यालभिर्विरुतया वनमालया च बल्गुप्रकोष्ठवलयम् विनता सुतांसे विन्यस्तहस्तमितरेणधुनानमब्जम् विद्युच्छिपन्मकरकुण्डलमण्डनार्ह गण्डस्थलोन्नस्मुखम् मणिमत्किरीटम् दुर्दण्डसण्डविवरे हर्तापरार्घ्यहारेण कन्धर्गतेन च कौस्तुभेनम् अत्रोपसृष्टमित च स्मितमिन्दिरायः स्वानाम् धिया विरचितम् बहुसौष्ठवाढ्यम् मह्यम् भवस्य भवताम् च भजन्तमङ्गम् नेमुर्निरीक्षन्न वितृप्तदृशो मुदाकैः तस्यारविन्दनयनस्य पदारविन्द किञ्जल्कमिश्रतुलसीमकरन्दवायुः अन्तर्गतः स्वविवरेण चकार तेषाम् संक्षोभमक्षरजुषामपि चित्ततन्वहम्। तेवा अमुष्य वदना सित पद्म को साम उद्विच सुंदर तरा धर कुंद हासम लब्धासि सह पुनरवेक्ष तदीय मंग्री द्वंदम नखारुण मणि श्रयणम निदध्यु पुंसाम गति मृगयताम इह जोग मार्गै ध्यानास्पदम बहुमतम नयनाभिरामम पौंसनम वपुर्दर्शया नमनन्य सिद्धै रौत्पत्ति कही समग्रणं जुतमस्त भोगहि कुमारा उचुः यंतरहितो हृदिगतोपि दुरात्मनां त्वं सोद्यैव नो नयनमूलमनन्तराधः जर्ह्येव कर्णविवरेण गुहां गतो नः पित्रानुवर्णितरः भवदुद्भवेन तं त्वां विदाम भगवन् परमात्मतत्त्वं सत्त्वेन सम्प्रतिरतिं रचयन्तमेषाम् जत्तेनु ताप विदित दृढ़ भक्ति जोगय रुद्रंथयो हृदय विदुर मुनयो विरागः नात्यंतिकं विगणयन्ते पिते प्रसादं किन्त्वन्य दर्पित भयं भुव उन्नयस्ते यंग त्वदंग्रि शरणा भवतः कथायः कीर्तन्य तीर्थ जस्सः कुशला रसज्ञः कामं भवः स्वृजिनेर निरये सुनस्तात् चेतो लिवद यदिनुते पदयो रमेता वाचश्च न स्थूलस्वद यदि तेऽङ्घ्रिशोभः पुर्येत ते गुणगणैर्यदि कर्णरन्ध्रः प्रादुश्चकर्थ तदिदं पुरुहूतरूपं तेनेश निर्वृतिमवापुरलं दृशो नः तस्माइदं भगवते नम इद्विधेम येनात्मनाम दुरुदयो भगवान प्रतीतः इति श्रीमद्भागवते महापुराणे परमहंस्याम संहितायां तृतीय स्कंधे जय विजयो शनकादि शापो नाम पञ्चदशोऽध्यायः।